अथ षोडशोऽध्यायः श्रीभगवानुवाच अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः दानं तमश्च यज्ञश्च स्वाध्यायः तप अहिंसा सत्यवक्रोधः त्यागः शान्तिरपैशूनम् दया भूतेषु अलोलुत्वम् मार्दवम् क्रीरचापलम् तेजक्षमा धृतिः शौचम् अद्रोगो नाति मानिता भवन्ति सम्पदं दैवीम् अभिजातस्य भारत दम्भो दर्पो अभिमानश्च क्रोधः पारुष्यमेव च अज्ञानं च अभिजातस्य पार्थ सम्पदम् विमोक्षाय निबन्धाय आसुरीमता माशु च सम्पदौ दैवीम् अभिजातोऽसि पाण्डव सर्गौ लोकेऽस्मिन् दैव आसुर एव च दैवो विस्तरशः प्रोक्तः आसुरं पार्थमेषु प्रवृत्तिं च निवृत्तिं च जनाः न विदुः आसुराः न शौचं नापि चाचारो न सत्यं तेषु विद्यते असत्यम् अप्रतिष्ठं ते sambhutam imanyat kamagai tukam yetam drishtim avashyabhya nashyatmanolpabuddhayaha prabhavanti ugra karmanaha kshayaya jagato hitaha kamamashritya dushpuram dambhamana madanvitaha mohat grihitva asagrahan pravartante ashuchivrataha चिन्ताम् अपरिमेयाम् च प्रलयाम् ताम् उपाश्रिताः कामोपभोगपरमाः एतावदिति निश्चिताः आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ईहन्ते कामभोगार्थम् अन्यायेन अर्थसञ्चयान् इदमद्यमया लब्धम् इमं प्राप्स्ये मनोरथम् इदमस्ति इदमपि ये भविष्यति पुनः धनम् असौ मया हतशत्रुः हनिष्ये जापरानपि ईश्वरोऽहम् अहम् भोगी सिद्धोऽहम् बलवान् सुखी आढ्यो अभिजनवान् अस्मि कोऽन्योऽस्ति सदृशो अनेक चित्त विभ्रांतादाय मोह जाल समाद्रितादाय प्रसक्ताः कामभोगेषु पतन्ति नरकेषु च आत्मसंभाविताः स्तब्धाः धनमान मदान्विताः यजन्ते नाम यज्ञैः ते दम्भेन अविधिपूर्वकम् संसारेषु नराधमान् क्षिपामि अजस्रम् अशुभान् आसुरीष्वेव योनिषु त्रिविधं नरकस्येदं द्वारं नाशनं आत्मनः कामः क्रोधः तथा लोभः तस्मात् एतत्त्रयं त्यजेत् विमुक्तः कौन्तेय तमोद्वारैः त्रिभिः नरः आचरति आत्मनश्रेयः ततो याति परा यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः न स सिद्धिम् अवाप्नोति न सुखम् न पराम् गतिम् తస్మాత్ శాస్త్రం ప్రమాణం తే కార్యాకార్య వ్యవస్థితౌ జ్ఞాత్వా శాస్త్రవిధానోక్తం కర్మ కర్తుం ఇహార్హసి. ఓం తత్సదితి శ్రీమద్భగవద్గీతాసు ఉపనిషత్సు బ్రహ్మవిద్యాయాం యోగశాస్త్రే శ్రీకృష్ణార్జున సంవాదే దైవాసుర సంపద్విభాగయోగో నామ షోడశోధ్యాయః.